ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। नमो नमः।
सभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः तत्र आसीत् तत्र चिच्छन इति प्रत्ययोः तत्र प्रयोगः इति, किन्तु तत् तस्य अन्तपुटम् आगतम् इति मन्ये। तत्र किञ्चिदेव अस्ति, तत् कृत्वा अग्रे सरामः। तत्र तु तत्र आत्मनेपदिनः धातवः तेषां लृट् लकारः, तत्र बहु समयानन्तरं तत्र लकारस्य विषयः आगतः। तत्र विभक्तेः विषयः एव बहु कालात् आसीत्, किन्तु इदानीं किञ्चिदेव तत्र अस्ति। तत् समापयित्वा तत्र अग्रे सरामः। गीताञ्जलि भगिनी नमस्कारः।
नमस्ते महोदय, क्षम्यतां महोदय, विलम्बेन आगतवती।
चिन्ता मास्तु भगिनि। अस्तु, अतः तत्र वयं कुत्र स्मः इत्युक्ते तत्र चतुरशीतितमे पुटे स्मः इति मन्ये। तत्र सुभाषितं यत् अस्ति तत्र प्रथमसुभाषितं वयं कृतवन्तः इति मन्ये। इदानीं तत्र प्रथमं केवलं प्रथमं न, द्वितीयमपि तत्र अस्मिन् पुटे प्रथमं सुभाषितं कृतम्। इदानीं तत्र अन्तिमम् अस्ति, तदनन्तरं तत्र भगवद्गीतायाः श्लोकद्वयमस्ति, तदनन्तरं तत्र अग्रे तत्र लृट् लकारस्य विषयः।
नमस्कारः महोदय।
लक्ष्मी भगिनी नमस्कारः। भगिनी नमस्कारः। अतः तत्र चतुरशीतितमे पुटे
तर्हि
अस्तु, तर्हि तत्र सूर्यकुमारी भगिनी आरम्भं करोति वा, तत्र न कश्चिदपि जानाति इति।
कश्चिदपि जानाति किं कश्चित् को भविष्यति, अतः श्वः करणीयानि कुर्यात् तदेव बुद्धिमान्।
तत्र कुर्यात् अद्य एव, अतः कुर्यात् अद्य एव इति
तत्तेव
न अद्य एव।
ओ, कुर्यात् अद्य एव,
कुर्यात् अद्य एव इति। अधो भागे लिखितं तत्र वाक्यद्वयं तदपि पठतु।
हा महोदय। कस्यापि जनस्य श्वः किं भविष्यति इति कोऽपि न जानाति, अतः बुद्धिमान् जनः श्वः करणीयानि कार्याणि अद्यैव कृत्वा समापयेत्।
अतः तत्र किञ्चित् विवृणोतु भगिनि।
हा महोदय। श्वः किं भविष्यति इति वयं न जानाति,
न जानीमः।
अतः श्वः कार्यम् अद्य एव करिष्यति।
न श्वः कार्यम् इति न, श्वस्तनकार्यं श्वस्तन अद्यतन ह्यस्तन इति वयम् अभ्यासपुस्तके ज्ञातवन्तः खलु। अतः श्वस्तनकार्याणि
अद्यतने
यदि कुर्मः तत् समीचीनं भवति। यदि अद्य एव कुर्मः समापयामः तद् बहु समीचीनं भवति। तत्र सुभाषिते तत्र चिच्छन प्रत्ययः कुत्र आगच्छति इति किञ्चित् वदतु। तत्र
न कश्चित्,
तत्र कश्चित् योगः अपि कश्चित्। तदनन्तरं
जानाति किं कस्य स्वो भविष्यति,
तदेव सत्यं समीचीनं भगिनि. अतः तत्र न कोऽपि जानाति तत्र कस्यापि जनस्य श्वः किं भविष्यति इति न कोऽपि जानाति. अतः यः बुद्धिमान् जनः अस्ति सः किं करोति, सः श्वः करणीयानि कार्याणि, श्वः करणीयानि कार्याणि तत्र अस्तु श्वः करोमि इति यत् चिन्तितं पूर्वं तत् त्यक्त्वा अद्य एव करोमि इति अद्य एव समापयेत् कुर्याद् इति अस्ति अतः समापयेत् इति तत्र विधिलिङ्ग् इति कुर्यात् अद्य एव कुर्यात् अद्य एव करोतु इति तत्र आदेशः वा अथवा तत्र तादृश अर्थे तत्र कुर्यात् इति. रघुवीरानन्दस्वामी नमस्कारः, सुप्रभातम्. अस्तु धन्यवादः, नमस्कारः नमस्कारः स्वामी. अस्तु अग्रे रघुपतिमहोदय अग्रिम तत्र भगवद्गीतायाः श्लोकद्वयमस्ति, प्रथमं पठति वा महोदय?
एकवारं महोदय. अस्तु. न जायते न जायतेन्द्र ते वा कदाचिन्नायं भूत्वा बपिका वा न भूय वा न भूयः अजो नित्यं शाश्वतोऽयं पुराणो न हन्यमाने हन्यते हन्यमाने शरीरे इति. न जायते मृते वा कदाचित् कदाचित् न अयं भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतः अयं पुराणः न हन्यते हन्यमाने शरीरे इति. अत्र कदाचित् न जायते म्रियते इति न जायते अपि म्रियते
न म्रियते न जायते न म्रियते
न म्रियते कदाचित् भूत्वा भविता वा भूत्वा वा भविता वा न भूयः इति अस्ति. न भूयः किमस्ति तत्र अजः नित्यं शाश्वतः शाश्वतः अयं पुराणः इति पुराणः न हन्यते हन्यमाने शरीरे हन्यमान् इति हन्यमान् आत्मस्य विषये एव
सत्यं महोदय. विषयः मूलविषयः अत्र अस्मिन् श्लोके आत्मः आत्मा अत्र आत्मः इति न आत्मा आत्मा न जायते
न जायते म्रियते वा न भविता
तत्र
भविता भूत्वा किं भूत्वा इति अत्र
तत्र तत्र जननं नास्ति चेत् तत्र अस्तु इदानीं तत् तस्य जननम् अभवत् इति तत्र भूत्वा भूत्वा इत्युक्ते पूर्वं नासीत् खलु तत्र सः कोऽपि अस्ति सः इदानीं तत् तस्य कार्यक्रमस्य अनन्तरं तस्य सः राजा अभवत् इदानीं सः राजा भूत्वा शासनं करोति किन्तु भूत्वा अस्ति चेत् तत्र पूर्वं सः राजा नासीत् इति किन्तु तादृश अर्थे तत् तत्तु वयम् आत्मनः विषये न वक्तुं शक्नुमः आत्मा भूत्वा किमपि करोति अथवा इति. अपि तत्र भूयः तत्र भूयः अपि पुनः तत्र तत् आसीत् इति अर्थे इति मन्ये. अतः तादृश तत्र आसीत् अस्ति भविष्यति इति तादृश सूचकं तत्र सूचकाः तत्र आत्मनः विषये न भवितुम् अर्हन्ति. अजः सः आत्मा अजः
अजः नित्यः शाश्वतः अयं पुराणः इत्युक्ते बहु पुरातनास्ति इति
तत्र पुराणः पुराणः इत्युक्ते तत्र कालात् तत्र तत्र अजः इत्युक्ते अतः तत्र पुराणः अद्य एव आगतम् इति नास्ति अपि तत्र नित्यः अपि शाश्वतः तत्र नित्यः इत्युक्ते तत्र शाश्वतः इत्युक्ते तत्र परिवर्तनं न भवति अतः शाश्वतः नित्यः इत्युक्ते तत्र नास्ति जन्ममरणं नास्ति इति अतः तत्र तत्र अतः तत्र समीचीनं अपि अन्तिमभागः तत्र न हन्यते तत्र आत्मा न हन्यते
हन्यमाने शरीरे हन्यमाने शरीरे हन्यमाने सति सप्तमी हन्यमाने आत्मा न हन्यते
समीचीनं
नित्यः
समीचीनं महोदय अतः तत्र यदा शरीरः हन्यमानः अस्ति तस्मिन् समये अपि एषः अयम् आत्मा न नित्यः अतः न हन्यते न हन्यते इति अतः तत्र सतिसप्तमी समीचीनं महोदय धन्यवादः तत्र तु इदानीं तत्र कदाचित् तद् केवलं एकमेव तत्र चित् प्रत्ययस्य प्रयोगः अस्मिन् श्लोके समीचीनं
महोदय
भविता इति अहं दृश्य अत्र लोट् लोट् लुट् लकारः अस्ति अहं चिन्तयामि महोदय खलु भविता भविष्यति भविता भवितारो भवितार इति तादृश
सत्यं सत्यं सवितं सत्यं महोदय
तत्र भविष्यति इति
सत्यं 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 महोदय तत्र लकारः सः एव लकारः इति मन्ये तत्र भविता इति तत्र एषः शब्दः तत्र भविता तत्र पश्यामः तत्र भू धातुः खलु तत्र
भविता भविता भवितारः भवति खलु महोदय तदेव अहं चिन्तयामि
सत्यं महोदय सत्यं
भूयः भविष्यत्कालः वा
भूयः तत्र लुट् लकारः भविता इति अस्ति भूयः भूयः इति तत्र तत्र भूयः इति
भूयः इति अव्ययम् अस्ति इति अत्र भूयः
भविष्यत्कालः वा
न जानामि
भूयः न भूयः भगिनि तत्र किञ्चित् संशयः मम संशयः अस्ति तत्र
भविता अद्यतन भूतकालः
अस्तु 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 भविता
भूत्वा भूतकालः पूर्वं पूर्वं न आसीत् अद्यापि न आसीत् भूयः अहमेव भूयः एव अहं संशय
संशय समीचीनं भगिनि तत्र प्रायशः भविष्यत्काले अपि तत्र न भवति इति तत्र तत्र इत्युक्ते तत्र इदानीं नास्ति अग्रे आयाति इति तादृश अर्थः नास्ति तादृश तादृश आत्मनः विषये न वक्तुं शक्नुमः
न आसीत् इदानीमपि न आसीत् इदानीम् अग्रे अपि न भविष्यति
किन्तु किन्तु किञ्चित् तत्र भेदः अस्ति तत्र अस्ति अपि भवति यद्यपि तत्र अस्तु अर्थसामान्यम् इति स्वीकुर्मः किन्तु अत्र किमस्ति तत्र भूत्वा इत्युक्ते तत्र पूर्वं नासीत् तदनन्तरम् आसीत् इति भूत्वा इति यदा भवति कुत्र भवति इत्युक्ते तत्र पूर्वं सः नासीत् तदनन्तरं सः अस्ति अथवा आसीत् तस्मिन् समये सः भूत्वा इति वदामः लक्ष्मी भगिनी समीचीनं वा तत्र इत्युक्ते तत्र पूर्वं नासीत् तत्र दशदिनात् पूर्वं सः नासीत् नवदिनात् पूर्वं यदि पश्यामः सः आसीत् अतः तत्र दशमे दिने पूर्वं पूर्वं भूतकाले दशमे दिने पूर्वं सः भूत्वा इति वक्तुं शक्नुमः, यतोहि तत्र पूर्वं तस्मात् पूर्वं सः नासीत् किन्तु तदनन्तरं सः आसीत्, अतः तत्र भूत्वा इति भवति। इत्युक्ते समयः अस्ति यस्मिन् तत्र कालः अस्ति यस्मिन् सः नासीत्, तदनन्तरं कालः अस्ति यस्मिन् सः अस्ति। तत्र परिवर्तनं, तत्र स्थितेः परिवर्तनं भूतकाले यदि भवति तत्र भूत्वा इति वदामः। यदा भवती उक्तवती तत्र भविता इत्युक्ते तत्र वर्तमान तत्र
अनद्यतने अनद्यतने दुट् अस्ति महोदय, श्वः एव भवति तत्र, अद्य न भवति,
अद्य न भवति, अस्तु
तत्र अनद्यतन भविष्यत्काल लुट् लकारस्य भवति, श्वः श्वः करणीयम्, अद्य अहं गमिष्यामि, सायं गमिष्यामि, अद्य अहं गन्ता इति न वक्तुं शक्नुमः, श्वः एव, श्वः एव अहं सोरि
भविष्यत्कालः,
अतः तत्र लुट् लकारः तत्र लुट् लकारः। तदनन्तरं तद् भविता इति, इदानीम् इदानीं भूयः इति तत्र तस्मिन् विषये तत्र अस्तु प्रायश तदेव सः एव अस्ति इति, अस्तु महोदय, अस्तु लक्ष्मी भगिनी तत्र तस्मिन् विषये न जानामि किन्तु भूयो भूयो नमाम्यम् इति तत्र भूयः प्रायशः सः एव अस्ति इति मन्ये। अस्तु तदनन्तरम् अन्यप्रश्नः कोऽपि प्रश्नः अस्मिन् श्लोके, हन्यमानः पुनः तत्र हन्यमानः शरीरः तत्र विशेषणविशेषभावः, अपि अन्यत् सर्वं तत्र न जायते न म्रियते वा कदाचित् अयं कदाचित् न अयम्, अतः तत्र कदाचिन्नायं भूत्वा भविता वा न भूयः अजः नित्यः शाश्वतः अयम्, तत्र सर्वे तत्र सर्वाणि विशेषणानि आत्मा इति पदस्य। अस्तु
क्षम्यतां महोदय, पुनः वदतु भूयः अर्थः कः, अव्ययं तु अस्ति,
भूयः पुनः पुनः इति,
ओ पुनः पुनः वा, अस्तु
तत्र भूयो भूयो नमाम्यहम् इति तत्र पुनः पुनः नमामि इति, भूयो भूयो इति, किन्तु अस्मिन् श्लोके किञ्चित् तत्र न किञ्चित् प्रायशः किञ्चित् अपि वक्तव्यमस्ति, किन्तु
पुनः इति अस्ति महोदय, पुनः इति अस्ति अत्र भूयः
अस्तु महोदय तत्र अस्तु, अतः तत्र भूत्वा पुनः भूत्वा भवित्वा भूत्वा भवित्वा इति तादृशः परिस्थितिः यत् यत् तत्र शरीरस्य भवति, शरीरस्य भवति, जीवनस्य भवति, तादृशः तादृशी परिस्थितिः, आत्मनः परिस्थितिः नास्ति इति,
पुनः पुनः न भवति इति तादृश अस्ति,
समीचीनं महोदय, समीचीनम्, धन्यवादः, सः एव अर्थः, समीचीनम्, अस्तु अग्रे तत्र लक्ष्मी भगिनी द्वितीय
अहं पठामि। नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः, अजानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः। नादत्ते कस्यचित् पापं न च एव सुकृतं विभुः, अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः।
तत्र अस्तु, तत्र द्वितीयभागः तु सुलभः अस्ति, तत् पश्यामः तत्र प्रथमतया, तत्र किम् अस्ति,
ज्ञानम् अज्ञानेन आवृतं अस्ति, अतः तेन
तत्र आवृतम् इत्युक्ते किम् अस्ति, तत्र न द्रष्टुं शक्नुमः,
न द्रष्टुं शक्नुमः,
आवरणम्
आच्छादनम्,
आच्छादनम्, आच्छादनम् अस्ति, तत्र ज्ञानस्य आच्छादनम् अज्ञानं कृतम् अस्ति, अज्ञानेन ज्ञानस्य आच्छादनम् अस्ति अभवत्, अतः तत्र ज्ञानं न द्रष्टुं शक्नुमः, यदा तत्र सूर्यस्य आच्छादनं भवति, मेघाः सन्ति, मेघैः सूर्यस्य आच्छादनं, तत्र सूर्यः मेघैः आवृतः अस्ति इति वक्तुं शक्नुमः. तादृश अर्थे तत्र ज्ञानं न दृश्यते, ज्ञानं न दृश्यते, अज्ञानेन आवृतम् अस्ति इति कृत्वा. अतः तेन इति इदानीम् अस्ति, तेन इत्युक्ते
तेन मुह्यन्ति जन्तवः,
तेन इत्युक्ते तेन कारणेन, तेन कारणेन, कारणं किं, तत्र ज्ञानं आवृतम् अस्ति इति,
अज्ञानेन आवृतम् अस्ति
इति कृत्वा, इति कृत्वा इति अर्थे तत्र तेन
मुह्यन्ति जन्तवः,
जन्तवः किं कुर्वन्ति, मुह्यन्ति, मुह्यन्ति इत्युक्ते मोहः अस्ति इति, तत्र तत्र यत् साक्षात् अस्ति वस्तुस्थितिः या अस्ति तां स्थितिं न पश्यन्ति इत्युक्ते तत्र डिल्यूडेड् इति वदामः खलु, तत्र माया इति यद् वदामः सः एव तत्र मुह्यन्ति, जन्तवः मुह्यन्ति, तेन कारणेन जन्तवः मुह्यन्ति इत्युक्ते तत्र यदा सम्यक् ज्ञानं नास्ति चेत् तत्र किं सम्यक् कार्यं कर्तुं शक्नुमः वा न, अतः तत्र जन्तवः सर्वे
मुह्यन्ति अर्थः
डिल्यूडेड् इति, डिल्यूडेड् इत्युक्ते तत्र तत्र यत्किमपि तत् कन्फ्यूस्ड् इति, मोहयन्ति इति, तत्र मुह्यन्ति इति, तत्र यत् करणीयं तद् न कुर्वन्ति, यद् न करणीयं तद् कुर्वन्ति इति, यतोहि तत्र सम्यक् ज्ञानं नास्ति इति. इदानीं तत्र द्वितीयभागे तत्र चिच्छन प्रयोगः अपि प्रत्ययः अपि नास्ति, इदानीं प्रथमभागे तत्र न
प्रथमभागे अस्ति न आदते कस्यचित्, कस्यचित् इति कस्य योगचित् कस्यचित् पापं,
न च
सुकृतं विभुः
एव सुकृतं विभुः, विभुः इत्युक्ते तत्र प्रभुः, तत्र भगवान्, तत्र न आदत्ते, तत्र तस्य तत्र यः कोऽपि अस्ति सः पापं करोति वा न पुण्यं करोति वा इति, तत्र तस्मिन् विषये तत्र भगवतः तत्र किमपि तत्र नास्ति, तत्र तेन तत् किमपि तत्र भगवतः किमपि न भवति,
कस्यचित् पापं वा,
पापं वा
सुकृतं वा न आदत्ते,
भगवान् न ददाति,
तत्र परिवर्तनं केवलम् अस्माकम् एव अस्ति, तत्र सः तु सर्वम् अङ्गीकरोति इति, तत्र इट् डजन्ट् म्याटर् टु हिम् इति अर्थे.
कस्यचित् मनुष्यस्य पापं वा सुकृतं, पापम् अथवा सुकृतं न ददाति,
न ददाति इति तत्र न आदत्ते,
महोदय
अकर्ता इति, सः न कर्ता अथवा कर्ता इति अपि तत्र
न स्वीकरोति,
न स्वीकर
विभुः न स्वीकरोति कस्यचित् पापं वा सुकृतं वा किमपि अस्ति वा न स्वीकरोति परमेश्वरः इति मन्ये महोदय.
अस्तु भगिनि, अस्तु अस्तु अस्तु,
आदत्ते इत्युक्ते स्वीकरोति वा,
आदत्ते इति स्वीकरोति अथवा यद् भवति तत् तस्य तत् पश्यति इति, तत्र टेक् नोट् इति तदपि वक्तुं शक्नुमः, तत्र
इत्युक्ते विपरीतार्थं भवति न महोदय, यथा गच्छति गच्छति आगच्छति तत्र आदत्ते इत्युक्ते
तत्र न आदत्ते इति अस्ति भगिनि तत्र, अतः यदि तत्र आकारस्य
स्वीकरणं, सत्यं महोदय स्वीकरणं, एक्सेप्ट्स्
इति भवति इदानीम्
एक्सेप्ट् इति स्वीकरणं तादृश अर्थे भवति
भगिनी तत्र यदा भवती उक्तवती केवलम् आदत्ते अस्ति चेत् सः न स्वीकरोति
किन्तु
तत्र न आदत्ते इति अस्ति
इत्युक्ते
सः स्वीकरोति
न गृह्णाति
न गृह्णाति
न गृह्णाति अस्तु हा अस्तु हा
तत्र किन्तु अर्थ समीचीनं वा न गृह्णाति
भगवान् अकर्ता अभोक्ता अस्ति अतः सः किमपि न कार्यं करोति न गृह्णाति न किमपि
इति तत्र यदि
तर्हि कथं यज्ञादिकं पूजादिकं किमर्थं करणीयम् एकः प्रश्नः उदेति खलु तस्य अर्थे तद् दत्तम्
धन्यवादः महोदय
किन्तु प्रथम श्लोक पङ्क्ति द्वितीय बन्ध सम्बन्धः
अस्ति अस्ति यतोहि तत्र किमर्थं तत्र पापं वा तत्र तत् कदा भवति यद् यदा तत्र ज्ञानं नास्ति अतः तत्र यदि कस्यापि ज्ञानं नास्ति तत्र न जानाति पापं किं पुण्यं किम् इति तत्र सम्यक् ज्ञानं नास्ति चेत् तत्र किमपि करोति अतः तत्र किञ्चित् सम्बन्धः सत्यं भगिनि किञ्चित् सम्बन्धः अस्ति किन्तु हा प्रायशः तत्र भगवद्गीतायां यदि श्लोकान् पूर्वश्लोकमपि अग्रिमश्लोकान् पश्यामश्चेत् तत्र प्रायशः भवति इति मन्ये हा तत्र आत्मा हा रघुवीरनन्दस्वामी यथा उक्तवान् तत्र सः न कर्ता न वा तत्र कर्म अनुभवति इति तत् सर्वं तत्र पूर्वस्मिन् श्लोके दत्तमस्ति भगिनि हा तत्र किञ्चित् श्लोकत्रयं परिशीलनीयम् इति मन्ये तत्र
Lord takes neither the demerit nor even the merits of any knowledge generated by ignorance they belong their beings are deluded yes.
हा तत्र तत्र किञ्चित् किञ्चित् अस्ति भगिनि पूर्णतया न उक्तवन्तः अत्र किन्तु अस्तु अस्तु अग्रे तत्र अन्तिम तत्र किम् अस्ति भगिनि सूक्तिः
सूक्तिः असतां सङ्गदोषेण साधवो यान्ति विक्रियां
हा तत्र असतां सङ्गदोषेण साधवः यान्ति
असज्जनानां सङ्गदोषेण साधवः गच्छन्ति कुत्र गच्छन्ति विक्रियां
हा विक्रियां प्रायश
ते अपि दुर्गतिं प्रति गच्छन्ति
इति हा यथा तत्र कथायाम् अभवत् खलु तत्र कथायां तत्र पिपीलिकाः इति अपि तत्र नौका इति वयं दृष्टवन्तः खलु तत्र तत्र अतः तत्र असतां सङ्गदोषेण साधवः अपि यान्ति विक्रियां यान्ति इत्युक्ते गच्छन्ति इति समीचीनं भगिनि अस्तु अस्तु अग्रे तत्र गीतञ्जलि भगिनि अग्रिमं तत्र चाटुश्लोकः इति अस्ति तत्र
चाटुश्लोकः विशेषः अद्याष्टमीति नवमीति चतुर्दशीति ज्योतिष्यवाचोपवसन्ति भक्त्या अहो श्रुते सत्त्वम् असीति वाक्यं न विश्वसन्ति इति
अद्भुतम् इति अद्भुतम् एतत् एतदेव समीचीनं भगिनि
अस्तु अद्य अष्टमी अतः भोजनं न क्रियते अद्य नवमी अतः उपवासः चतुर्दशी कारणतः उपवासः क्रियते मया इत्यादीनि वचनानि बहुधा श्रूयन्ते लोके। तादृशेषु दिनेषु उपवासस्य आचरणात् पुण्यमिति ज्योतिषीयैः यदुक्तं तत्र विश्वसन्तः जनाः एवं व्यवहरन्ति। किन्तु तत्त्वमसि प्रभृतिषु वाक्येषु जनाः विश्वासं न कुर्वन्ति।
बाह्याचरणे
बाह्याचरणे अधिकश्रद्धा तत्त्वे अश्रद्धा च लोकस्य स्वभावः भवति प्रायः
इति। अतः तत्र श्रद्धा कस्मिन् विषये अथवा कस्मिन् वाचि तत्र ज्योतिषे
श्रद्धा कस्मिन् भवति
इति इति वार्ता। तत्र प्रथमतया तत्र किम् अस्ति, तत्र अद्य अष्टमी अतः भोजनं न क्रियते,
इत्युक्ते उपवासः। तदनन्तरं नवमी तत् उपवास एव।
अतः तत्र तादृशानि वचनानि वयं शृण्मः बहुधा शृण्मः लोके,
बहुधा शृण्मः
तादृशेषु दिनेषु।
तादृशेषु दिनेषु उपवासस्य आचरणात् पञ्चमी पुण्यम् इति ज्योतिषिकैः यदुक्तं तत्र विश्वासन्तः जनाः एवं व्यवहरन्ति। इत्युक्ते जनाः यत् ज्योतिषी
जनाः तत्र ज्योतिषिकः इति प्रायशः अस्ति, ज्योतिषिकैः
ज्योतिषिकैः तृतीया
तत्र तैः उक्तं यद् उक्तं
तैः यद् उक्तं
तत्र किं कुर्वन्ति जनाः
विश्वसन्ति
विश्वसन्तः जनाः तत्र विश्वसन्तः इति शत्रन्त प्रथम बहुवचनम् विश्वसन् जनः विश्वसन् जनाः विश्वसन्तः जनाः कस्मिन् विषये विश्वसन्तः जनाः यदुक्तं ज्योतिषिकैः यदुक्तं तत्र विश्वसन्तः जनाः एवं व्यवहरन्ति तत्र अस्मिन् दिने उपवासः अस्मिन् दिने भोजनं न करिष्यामि इति तादृश व्यवहारं ते जनाः कुर्वन्ति इदानीं। किन्तु किमर्थं तत्र कारणं किम् अस्ति?
किन्तु
भगिनि तत्र ते किमर्थं कुर्वन्ति?
ते विश्वसन्ति इत्युक्ते यत् ज्योतिषिकैः वचनानि
तस्मिन् विषये विश्वासः अस्ति, किन्तु किमर्थं तत्र किमर्थं विश्वासः अस्ति?
किमर्थम् इत्युक्ते पुण्यम् इति मन्ये
तस्मिन् अतः तत्र तस्मिन् अथवा तादृशेषु दिनेषु उपवासस्य आचरणात्
पुण्यम् इति
तत्र किं पुण्यम् इति तावत् पर्यन्तं किम् अस्ति? उपवासस्य आचरणात् पुण्यं नाम यदि तस्मिन् दिने उपवासः भवति तदा किं भवति? तस्मात् पुण्यं लभ्यते। अतः तत्र आचरणात् इति कारणं मह्यं पुण्यं न तत्र मया पुण्यः पुण्यं लभ्यते मया पुण्यं प्राप्स्यते इति
जनाः विश्वसन्ति।
इति तत्र किमर्थं विश्वसन्ति तत्र पुण्यं भवति इति यत् उक्तं तत्र तत् तस्मिन् विषये ते तेषां विश्वासः अस्ति श्रद्धा अस्ति किन्तु इदानीं किन्तु
किन्तु तत्त्वमस्ति प्रभृतिषु वाक्येषु जनाः विश्वासं न कुर्वन्ति
तत्र तत्त्वमसि इत्युक्ते तत्त्वमसि इत्युक्ते
मन्त्र अस्ति
महावाक्यः महावाक्यमिति वदामः खलु तत्र तत्त्वमसि इति उपनिषद् उपनिषद् वाक्यानि इति चिन्त्य उपनिषदः वचांसि इति अथवा उपनिषत्सु उपनिषत्
सामवेदमन्त्रः महोदय तत्त्वमसि सामवेदं वदति तत्त्वम् असि यजुर्वेदः वदति अहं ब्रह्मास्मि ऋग्वेदः भवति वदति प्रज्ञानं ब्रह्म अथर्वणवेदः भवति अथम् अयम् आत्मा ब्रह्म
समीचीनं भगिनि तत्र किम् अस्ति तत्र चतुर्महावाक्यानि सन्ति प्रत्येकं वाक्यम् एकस्य वेदस्य वाक्यम् इति महावाक्यम् इति तत्र महावाक्यं मन्त्रमपि समीचीनमेव तत्र महावाक्यं तेन तत्र तेन तत्र तस्य वाक्यस्य किम् अनुसन्धानेन तत्र साधारणवाक्यं नास्ति तत्र
अर्थः समानमेव
सत्यं सत्यं भगिनि किन्तु तत्र वेदः तत्र महावाक्यानि तत्र चतुर्महावाक्यानि इति वदामः एकं वाक्यम् एक तत्र ऋग्वेदस्य एकं महावाक्यम् इति समीचीनं भगिनि धन्यवादः तत्र अतः तत्र तत्त्वमसि इति
उक्तवान् अहं लिखितवती
अस्तु समीचीनं भगिनि समीचीनं वेदवाक्यमेव अथवा उपनिषद् वाक्यमपि वक्तुं शक्नुमः यतोहि तत्र अस्मिन् विषये एव तत्र उपनिषत्सु बहु किमपि तत्र अतः तत्र उपनिषद् वाक्यम् इति अपि वक्तुं शक्नुमः तादृशेषु तत्र उपनिषद् वा वेदः किं भवति तत्र तत्र नाम किं तत्र यदि वेद अथवा उपनिषद् इति वक्तुम् इच्छामः तत्र किं भवति तत्र स्मृति वा श्रुति वा किमस्ति तत् अतः तत्र महावाक्यानि श्रुतिवाक्यानि अतः श्रुतिवाक्येषु तस्मिन् वाक्ये विश्वासं न कुर्वन्ति किन्तु तत्र यदि तत्र उपवासः भवति तत्र तस्मात् पुण्यं लभति इति तत्र तस्मिन् विषये तु विश्वासं कुर्वन्ति अतः तत्र किम् अस्ति बाह्याचरणे तत्र उपवासः एतत् सर्वं बाह्य बहिः यद् आचरणं भवति रिच्युवल् अथवा तत्र यद् वयं द्रष्टुं शक्नुमः अथवा फार्म् नास्ति भगिनि तत्र औटर् आक्षन्स् इति तत्र यद् तत्र बाह्याचरणे अधिकश्रद्धा तत्त्वे अश्रद्धा
मूलतत्त्वे
अश्रद्धा इति च लोकस्य स्वभावः भवति प्रायः इति ते अन्तिमे किं वदन्ति प्रायः इति निश्चयेन इति न वदन्ति प्रायः इति
परन्तु महोदय तत्त्वमसि अर्थं किम् अस्ति
तत्र तत् त्वम् असि इत्युक्ते तत्र सर्वे जनाः तत्र आत्मस्वरूपं सन्ति इति तद् इत्युक्ते आत्मा त्वम् इत्युक्ते वयम् असि इत्युक्ते तत्र तत् त्वम् असि, अतः तत्र मध्ये तत्र आत्मा अपि वदतु भगिनि.
तत् मीन्स् दट् दट् इस् यू
इति, किन्तु तत्र दट् इत्युक्ते आत्मा अपि, तत्र जीवात्मा परमात्मा तयोः मध्ये भेदः नास्ति.
भगवान् इति कोऽपि अन्यः नास्ति.
हा भयं हा तत्र अस्माकम् आत्मा एव भगवान् इति,
परमात्मा जीवात्मा
समानम्
इति,
भेदः नास्ति. समीचीनं भगिनि,
समानमेव
इति. अतः तत्र भगवतः अन्वेषणं बहिः न करणीयम्, अन्ते एव करणीयम् इति. यथा वयं तत्र गीतासोपाने अन्तिमभागे अन्तिमपाठे वयं ज्ञातवन्तः खलु, तत्र दशमः कः कः इति पाठः आसीत्, स्मरन्ति वा सर्वे? हा तत्त्वम् अस्ति इत्युक्ते तत्र अन्तः एव तत्र आत्मनः अन्वेषणं करणीयं, न तु बहिः इति. अतः तत् तत्त्वम् अस्ति इति. हा अस्तु, समीचीनम् अस्तु. इदानीं तत्र चिच्छन इति पाठः समाप्तः, इदानीम् अग्रे सरामः तत्र. अस्तु नरेश् महोदय, बहु दिनात् अनन्तरं भवान् आगतवान्. अस्तु इदानीम् अग्रिमपाठम् आरम्भं करोतु महोदय.
आं महोदय, सागरतीरविहारः. आत्मनेपदिनः धातवः लृट् लकारः. विनीतः श्वः अहं किं करिष्यामि इति चिन्तयन् अस्ति. तस्य वाक्यानि उच्चैः पठत. श्वः रविवासरः, सायम् अहं सागरतीरं गमिष्यामि. तत्र गोपालः मां प्रतीक्षिष्यते. सायंकाले सागरशोभा नितरां वर्धिष्यते. बहवः जनाः तत्र वर्तिष्यन्ते. सर्वे अपि सागरसौन्दर्यम् आस्वदिष्यन्ते.
किञ्चित् अग्रे अपि पठतु महोदय, तत्र भासिष्यते इति तावत्.
आकाशे चन्द्रः प्रकाशिष्यते. नक्षत्राणि द्योतिष्यन्ते. तदा सूर्यः सागरे गाहिष्यते. सः रक्तवर्णेन शोभिष्यते. सः पक्वं फलम् इव भासिष्यते.
हा समीचीनं महोदय, अस्तु. इदानीम् अग्रे रघुवीरनन्दस्वामी.
महोदय, भासिष्यते आवान्तम् आनन्दं लोकिष्यावहे. सर्वे जनाः अपि लोकिष्यन्ते. क्रीडारताः बालाः तत्र वर्तिष्यन्ते. तेषां चेष्टाः वीक्ष्यावहे वीक्षिष्यावहे क्षिपितं तेषां चेष्टाः वीक्षिष्यावहे. तैः साकं भृशं मोदिष्यावहे. रात्रिं यावत् तत्रैव रंस्यावहे.
इति समीचीनं महोदय. इदानीं तत्र मूलविषयः तत्र किम् अस्ति, लृट् लकारः अपि आत्मनेपदिनः धातवः इति. तत्र आत्मनेपदी धातूनां तत्र लट् लकारः स्मरन्ति वा? तत्र
ते इते अन्ते, से इते द्वे, ई आवहे अम.
समीचीनं महोदय, अस्तु अस्तु. अतः तत्र शोभते इति तत्र रूपाणि एकवारं भवतु महोदय. शोभते
शोभते शोभेते शोभन्ते शोभस्य
शोभेते
शोभेते शोभत्वे.
उत्तमपुरुषः
शोभे शोभि
शोभे शोभे
शोभे शोभावहे शोभामहे
शोभामहे हा इति समीचीनं महोदय. इदानीं तत्र तद् लट् लकारः आसीत्, इदानीं तत्र लट् लृट् लकारः तावदेव. इदानीं तत्र परिवर्तनं किम् अस्ति, तत्र अन्ते तु ते इति एव अस्ति, तत्र वर्धते इति स्थाने तत्र किम् अस्ति, वर्धते स्थाने वर्धिष्यते, हा मध्ये इष्य इति आगतं, तावदेव. तत्र शोभते शोभिष्यते. इदानीं तत्र अग्रिमे पुटे तत्र रूपं दत्तमस्ति, तत्र बन्द् बन्द् इति, तत्र रघुवीरानन्दस्वामी भवनेव तत्र वन्दिष्यते इति अस्ति, एकवारं पठित्वा तत्र लट्लकाररूपमपि एकवारं वदति वा महोदय, तत्र
कोष्टकम्
अग्रिमे पुटे महोदय, अग्रिमे पुटे हा तत्र वन्दिष्यते इति वन् धातोः रूपाणि
धातुः आत्मनेपदे लृट् लकाररूपम् अस्ति. वन्दिष्यते वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येथे वन्दिष्यध्वे. उत्तमपुरुषः वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे.
हा अतः तत्र भेदः कः महोदय, तत्र लट् लकारः अपि लृट् लकारः, भेदः कः तत्र? वन्देते वन्दते वन्दि वन्
इष्ट्य
केवलं तत्र अकारः, तत्र वन्दते इति स्थाने अकारस्य स्थाने तत्र वन्द् योगः अथे इति आसीत्, इदानीं तत्र किं भवति? वन्द् योगः इष्यते. वन्द् योगः एते इति आसीत्, तत्र एते तु भवति किन्तु तस्मात् प्राक् इष् इति इष् इति आगच्छति, अतः तत्र इष्यते, तत्र एते इति स्थाने इष्येते इति भवति. अतः तत्र नाम यदि लट्लकारः तस्य लट्लकारस्य ज्ञानम् अस्ति, लृट्लकारस्य रूपारूपं सुलभम् इति तावदेव खलु. तत्र एकवारं वदतु महोदय, तत्र अस्मिन् तत् कोष्टकमेव दृष्ट्वा तत्र वन् धातोः लट्लकारः वन्दते वन्दिष्यते
वन्दते वन्देते
किन्तु तत्र वन्दते तदनन्तरं लृट्लकारः वन्दिष्यते इति भवति, तदनन्तरं वन्देते किं भवति? वन्दिष्येते इति भवति. तत् तादृशं वर्णनं कर्तुं शक्नोति वा?
ते इते अन्ते वन्दन्ते वन्दिष्यन्ते
हा अपि तत्र
वन्दते वन्दिष्यसे वन्देते वन्दिष्येते वन्दध्वे वन्दिष्यध्वे वन्दे वन्दिष्ये वन्दावहे वन्दिष्यावहे वन्दामहे वन्दिष्यामहे
हा इति तत्र साधारणरूपं. तदनन्तरं तत्र लभते इति तत्र अल्पकारः आगच्छति, तत्र तत् सर्वम् इदानीं मास्तु, किन्तु तत्र साधारणधातूनां तत्र पश्यामः तत्र किं किं तत्र विशिष्टरूपं मास्तु इदानीं, केवलं तत्र साधारणरूपं पश्यामः. अतः तत्र वर्तते वर्तिष्यते इति अस्ति. धन्यवादः महोदय. इदानीं तत्र अग्रे तत्र हा लक्ष्मी भगिनी, इदानीं तत्र साधारणरूपं पश्यामः, तत्र वर्तते वर्तिष्यते इति भवति, अतः तत्र पुनः तत्र वर्तते वर्तिष्यते भवति इति तादृशं वर्णनं करोति वा भगिनि? तत्र कोष्टकं पश्यतु भगिनि, पेज् 86 पश्यतु. तत्र बन्द् धातोः रूपाणि दत्तानि सन्ति खलु, तद्दृष्ट्वा प्रथमतया तत्र वर्तिष्यते इति तद् वदतु भगिनि.
वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते वर्तिष्यसे वर्तिष्येथे वर्तिष्यद्वे वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे
इति. इदानीं तद् एतं कोष्टं तत्र कोष्टकं दृष्ट्वा एव पुनः तत्र वर्तते इति तस्य लट्लकररूपं वदति वा, वक्तुं शक्नोति वा?
वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेते, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे।
हा, अतः सुलभम् अस्ति खलु भगिनि, तत्र यदि लट्लकारं लट्लकारस्य ज्ञानम् अस्ति, लृट्लकारस्य रूपाणि कर्तुं शक्नुमः। यदि
लट्लकारस्य मध्ये इष्य इति सर्वत्र
इति स्थापनीयं, समीचीनम्, इष्य इति, इष्य इति तत्र साधारणरूपं, तत्र विशेषरूपाणि इदानीं भिन्नं, किन्तु साधारणरूपं सः तदेव अस्ति। अपि तत्र यदि लृट्लकारस्य रूपम् अस्ति चेत् तत्र मध्ये इष्य इति तद् यदि निष्कासयामः तत्र लट्लकारस्य रूपं प्राप्तं भवति। अस्तु, इदानीं तत्र गीताञ्जलि भगिनि, इदानीं तत्र लोकते इति तत्र प्रथमतया लृट्लकाररूपाणि वदतु भगिनि। हा,
लृट् लोकिष्यते, लोकिष्येते, लोकिष्यन्ते, लोकिष्यते, लोकिष्येते, लोकिष्यते, लोकिष्या
इदानीं तत्र तदेव तत्पुटमेव दृष्ट्वा तत्र लट्लकाररूपं लोकते इति लोकते
लोकते लोकेते लोकन्ते लोकसे लोके लोकद्वे लोके लोके लोकावहे लोकामहे।
हा, समीचीनं भगिनि। हा, अस्तु, समीचीनं सूर्यकुमारी भगिनि। इदानीं तत्र मोदते इति इदानीं मोदिष्यते इति रूपाणि वदतु।
मोदिष्यते, मोदिष्येते, मोदिष्यन्ते, मोदिष्यते, मोदिष्येते, मोदिष्यत्वे, मोदिष्ये, मोदिष्यावहे, मोदिष्यामहे।
हा, इदानीं लट्लकररूपं
मोदते, मोदेते, मोदन्ते, मोदसे, मोदेते, मोद
समीचीनं भगिनि। अस्तु, रघुपति महोदय, इदानीं तत्र भासते
भासते, भासिष्यते, भासेते, भासिष्येते, भासन्ते इति, भासन्ते, भासिष्यन्ते इति,
भासिष्यन्ते,
भासते, भासिष्यते, भासेते, भासिष्येते, भासध्वे, भासध्वे, भासिष्यध्वे इति, भासिष्यध्वे इति, भासे, भासे, भासिष्ये, भासावहे, भासावहे, भासिष्यावहे, भासामहे, भासिष्यामहे इति।
हा, इति समीचीनं महोदय, धन्यवादः। नरेश महोदय, इदानीं तत्र कम्पते इति, कम्पिष्यते इति,
कम्पते, कम्पिष्यते, कम्पेति, कम्पिष्येति, कम्पन्ते, कम्पिष्यन्ते, कम्पसे, कम्पिष्यसे, कम्पेथे, कम्पिष्येथे, कम्पध्वे, कम्पिष्यध्वे, कम्पे, कम्पिष्ये, कम्पावहे, कम्पिष्यावहे, कम्पामहे, कम्पिष्यामहे
इति। समीचीनं महोदय, अस्तु, हा, तावदेव। अतः तत्र यदि लट्लकाररूपं जानीमः, लृट्लकाररूपमपि जानीमः, तत्र मध्ये इष्य इति स्थापनीयम् इति अस्ति साधारणरूपम्। अग्रे तत्र विशेषरूपं पश्यामः। इदानीं तत्र प्रथम अभ्यासः समाप्तः, अन्यः अभ्यासः अपि अत्र करणीयः अस्ति। तत्र यः करणीयः अभ्यासः इत्युक्ते तत्र कर्तृपदमपि तत्र योजनीयं, तत् केवलं क्रियापदम् अस्ति, कर्तृपदमपि तस्य योजनं कृत्वा पुनः वदामः तत्र। अतः तत्र अग्रे अपि तत्र अस्ति, किन्तु हा, एतत् कुर्मः। अतः तत्र पुनः तत्र रघुवीरानन्दस्वामी, इदानीं तत्र सः अपि त्वम् अपि अहम् इति उपयुज्य तत्र वर्तते इति, तत्र वर्तिष्यते, सः वर्तिष्यते इति वदति वा महोदय? केवलं तत्र लृट्लकार, लृट्लकारमेव, लट्लकारं मास्तु, लट्लकार लृट्लकार तयो मध्ये कः सम्बन्धः इति इदानीं ज्ञातः खलु
महोदय?
अस्माभिः ज्ञातः, अतः भेदः कः इति ज्ञातः, अतः तत्र रूपपरिचयः जातः इदानीम्। अतः अग्रे तत्र क्रियापदस्य रूपस्य ज्ञानम् अस्ति, इदानीं तत्र तेन क्रियापदेन तत्र कर्तृपदमपि योजयित्वा सरलवाक्यं, तत्र कर्तृपदं क्रियापदं तावदेव। अतः सः
सः वर्तिष्यते, तौ वर्तिष्येते, ते वर्तिष्यन्ते, त्वं वर्तिष्यसे, युवां वर्तिष्येते, यूयं वर्तिष्यध्वे, अहं वर्तिष्ये, आवां वर्तिष्यावहे, वयं वर्तिष्यामहे।
हा इति समीचीनं महोदय, अस्तु अग्रे लक्ष्मी भगिनी। इदानीं तत्र वन्द् इति अस्ति, इदानीं तत्र लभते इति, लभते इति मास्तु, तत्र लप्स्यते इति मास्तु, अस्तु तत्र साधारणं कुर्मः, अत्र शोभते अथवा लोकते इति, लोकिष्यते इति स्वीकुर्मः, सः अथवा सा लोकिष्यते,
सा लोकिष्यते, ते लोकिष्येते, ताः लोकिष्यन्ते, त्वं लोकिष्यसे, युवां लोकिष्येते, यूयं लोकिष्यद्वे, अहं लोकिष्ये, आवां लोकिष्यावहे, वयं लोकिष्यामहे।
हा इति समीचीनम्, अस्तु गीताञ्जलि भगिनि, अग्रे तत्र मोदते, मोदिष्यते इति, हा तत्र भवति मोदिष्यते इति,
भवती मोदिष्यते, भवत्यौ मोदिष्येते, भवत्यः मोदिष्यन्ते, त्वं मोदिष्यते, युवां मोदिष्येते, वयं यूयं मोदिष्यद्वे, अहं मोदिष्ये, आवां मोदिष्यावहे, मोदिष्यावहे, वयं मोदिष्यामहे।
हा समीचीनं भगिनि, हा समीचीनम्, अस्तु सूर्यकुमारी भगिनि, इदानीं तत्र तत्र द्योतते इति स्वीकरोति वा? द्योतते, द्योतते इति अस्ति,
द्योतते,
द्योतिष्यते इति भवति,
द्योतते,
तत्र पुटसङ्ख्या तत्र पञ्चाशीतिः, पञ्चाशीतितमे पुटे तत्र कोष्टकम् अस्ति खलु, तत्र अधोभागे तत्र द्योतते इति उपरि अस्ति, तत्र स्तम्भद्वयम् अस्ति,
द्योतते, ओके,
हा द्योतते, द्योतिष्यते इति, हा तत्र, हा तत्र द्योतिष्यते, हा द्योतिष्यते, अथवा तत्र सरलम् अस्ति चेत् तत्र किं तत्र कम्पते इति करोति, अस्तु अस्तु, अतः द्योतिष्यते, तत्र किं तत्र एतत् स्वीकरोतु, तत्र किं तत्र द्योतिष्यते इत्युक्ते शैन् इति अर्थात् द्योतते इत्युक्ते तत्र शैन् इति मन्ये, तत्र किं कुर्मः, तत्र किं, हा अस्तु तत्र नक्षत्रं, हा नक्षत्रं,
नक्षत्रं ज्योतिष्यते,
ज्योतिष्यते,
नक्षत्रे ज्योतिष्येते, नक्षत्राणि ज्योतिष्यन्ते, त्वं ज्योतिष्यसे, युवां ज्योतिष्येते, यूयं ज्योतिष्यद्वे,
ज्योतिष्यद्वे, ज्योतिष्यद्वे,
अहं ज्योतिष्ये, आवां ज्योतिष्यावहे, वयं ज्योतिष्यामहे।
दकारः द्योतिष्यामहे
भवती जकार उक्तवती
योगः योगः यकारः द्योति द्योतते द्योतते
द्योतते शैनिङ्ग्
शैनिङ्ग् इति मन्ये भगिनि तत्र प्रकाशते इति
विद्यते इत्यपि भवति तस्य द्योतते
ओ अस्तु अस्तु
तादृशार्थे वयं तत्र
तत्र द्रष्टुं शक्नुमः तत्र
तादृशप्रयोगः शैलिः अस्ति अर्थः
सत्यं भगिनि तत्र तत्र विद्यमानः अस्ति विद्यमानः अस्ति इति
विद्यते इत्यर्थे
समीचीनं महोदय अस्तु इदानीं
इति भासते इति वदामः खलु
सत्यं सत्यं
तदपि शैन् एव
तत्र सत्यं सत्यम् अस्तु महोदय इदानीं तत्र भवान् किं स्वीकरोति तत्र तत्र अस्तु तत्र जायते इति करोति वा महोदय तत्र जायते तत्र किं
जन जन इति वा जनिष्यते इति तादृश जा इति दातुः
जा इति दातुः तत्र
जनदातु खलु ज्ञा वा
ओ अस्तु 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 ज्ञायते इति न न न न न न
अस्तु
जायते जन् इति
इदानीं मास्तु इदानीम् इदानीं विशेषरूपेण मास्तु अतः तत्र कल्प अस्तु 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 तदेव करोतु महोदय अस्तु
अत्र दातु आदेशः न भवति जन् दातोः ज्ञा इति न भवति लट् लुट् लकारे
जनिष्यते इति दत्तमस्ति सत्यं सत्यम् अस्तु
अस्ति अत्र
तत्र पे पुटसङ्ख्या तत्र किं षड् अशीति षड् अशीतितमे पुटे दत्तमस्ति तत्र जायते जनिष्यते इति
अतः सः जनिष्यते तौ जनिष्येते ते जनिष्यन्ते त्वं जनिष्यते युवां जनिष्येते यूयं जनिष्यध्वे अहं जनिष्ये आवां जनिष्यावहे वयं जनिष्यामहे
इति समीचीनं महोदय अस्तु अग्रे नरेश महोदय इदानीं तत्र कम्पते इति करोति वा महोदय तत्र सः कम्पते इति
सः कम्पिष्यते तौ कम्पिष्येते ते कम्पिष्यन्ते त्वं कम्पिष्यसे युवां कम्पिष्येथे यूयं कम्पिष्यध्वे अहं कम्पिष्ये आवां कम्पिष्यावहे वयं कम्पिष्यामहे
इति समीचीनं महोदय अस्तु इदानीं किं तत्र वयं रूपाणि कानि इति दृष्टवन्तः लट्लकारः अपि लृट्लकारः तयोः मध्ये कः भेदः इति ज्ञातवन्तः इदानीं तत्र क्रियापदस्य अपि कर्तृपदस्य तत्र यः सम्बन्धः वर्तते तस्य सम्बन्धस्य ज्ञानमपि प्राप्तवन्तः खलु यतोहि तत्र सः अपि वन्दिष्यते अहं वन्दिष्ये इति तत्र मनसि तदपि स्थापितमस्ति इदानीम् अतः इदानीं तत्र पाठं दृष्ट्वा वयम् अवगन्तुं शक्नुमः इति मन्ये अतः पुनः पाठं पश्यामः तत्र अस्तु लक्ष्मी भगिनी तत्र प्रथमपरिच्छेदं पठति वा भगिनी तत्र
अस्तु महोदय श्वः रविवासरः सायम् अहं सागरतीरं गमिष्यामि
तत्र
श्वः रविवासरः
श्वस्तनविषयः अस्ति खलु तत्र अद्य कः वासरः अद्य शनिवासरः तस्मिन् लोके अस्माकं लोके न तस्मिन् दिने शनिवासरः अतः
श्वः रविवासरः
विनीतः चिन्तयति श्वः रविवासरः
सायम् अहं सागरतीरं गमिष्यामि
तत्र कुत्र गमिष्यामि किं गमिष्यामि
सागरतीरं विनीतः
इदानीं तत्र अहं सागरतीरं गमिष्यामि इति स्थाने विनीतः सागरतीरं किं भवति?
गमिष्यति.
गमिष्यति इति तत् परस्मैपदे धातु जानीमः. अग्रे
तत्र गोपालः मां प्रतीक्षिष्यते.
तत्र गोपालः किं भवति, किं करोति, किं करिष्यति?
मां प्रतीक्षिष्यते.
हा इत्युक्ते
मम प्रतीक्षां करिष्ये.
करिष्यति.
करिष्यति.
मम प्रतीक्षां करिष्यति. हा तत्र इति स्थाने किम् अस्ति? तत्र
सागरतीरे.
हा तत्र सागरतीरे गोपालः.
गोपालः मां मम प्रतीक्षां करिष्यति.
करिष्यति अथवा मां प्रतीक्षिष्यते. समीचीनं भगिनि. अग्रे
सायंकाले सागरशोभा नितरां वर्धिष्यते.
हा तत्र किं वर्धिष्यते?
शोभा. सागरशोभा वर्धिष्यते.
सागरस्य शोभा वर्धिष्यते. कीदृशं वर्धनं भवति सागरशोभायाः?
नितरां वर्धिष्यते.
नितरां वर्धिष्यते. तत्र बहुवर्धनं भवति तत्र. अतः सागरशोभा नितरां वर्धिष्यते. कस्मिन् समये? सायंकाले.
सायंकाले.
सायंकाले. हा अग्रे
बहवः जनाः तत्र वर्तिष्यन्ते. बहवः जनाः वर्तिष्यन्ते. कुत्र? सागरतीरे. सागरतीरे बहवः जनाः वर्तिष्यन्ते.
हा तत्र जनाः तत्र वर्तिष्यन्ते. जनः तत्र किं भवति?
जनः वर्तिष्यते.
हा जनः तत्र वर्तिष्यते. जनाः तत्र वर्तिष्यन्ते. अहमपि तत्र
अहं वर्तिष्ये.
अहमपि तत्र वर्तिष्ये. समीचीनं भगिनि. अहमपि तत्र वर्तिष्ये. समीचीनं. हा अग्रे
सर्वेपि सागरसौन्दर्यम् आस्वदिष्यन्ते.
हा तत्र सागरसौन्दर्यस्य आस्वादनं करिष्यन्ति इति. हा समीचीनं. तत्र आस्वादिष्यन्ते. तत्र सर्वे अपि आस्वादिष्यन्ते. अहमपि
सागरसौन्दर्यं
आस्वादिष्ये. समीचीनम्. अपि तत्र गोपालः मां प्रतीक्षिष्यते. किन्तु तत्र
स्वदते इति खलु महोदय, अतः आस्वदिष्यते. आस्वाद इति न खलु.
सत्यं महोदय. तत्र आस्वादनम् इति न आस्वादनं.
अस्माकं सर्वदा आस्वाद.
सत्यं सत्यं महोदय. दोषः एव
तादृश एव वयं कृतवान् आसीत् पूर्वम्.
सत्यं महोदय. धन्यवादः. न न सत्यमेव. तत्र तत्र लोकव्यवहारे तु आस्वादम् इति अस्ति. किन्तु सत्यं हा स्वादिष्टः अस्ति इति सर्वदा भवति. हा सत्यं महोदय. हा तत्र आस्वादनं.
क्षम्यतां महोदय, तत्र भेदः अस्ति वा? इत्युक्ते
स्वदते न न स्वादनम् इति भवति. तद् भिन्न कृदन्तपदमस्ति. तत्र आस्वादः इति तत्र स्वादः इति भवति. तत्र स्वादः इति अस्ति घञ् प्रत्ययः. स्वादः आस्वादः इति कृदन्तपदमस्ति. अत्र तु क्रियापदमस्ति. अतः स्वदते स्वदेते स्वदन्ते इति भवति.
अस्तु अस्तु. किन्तु धातु तु
स्वदधातु एव.
स्वधातु
स्वादते.
धन्यवादः महोदय. हा अपि तत्र लक्ष्मी भगिनी, तत्र गोपालः मां प्रतीक्षिष्यते. तत्र अनेकानि मित्राणि सन्ति इति कृत्वा तत्र मित्राणि मां
प्रतीक्षिष्यन्ते.
प्रतीक्षिष्यन्ते इति तावदेव. समीचीनं भगिनि. हा अस्तु अग्रे सरामः. तर्हि इदानीं गीताञ्जलि भगिनि अग्रे.
अस्तु
आकाशे.
सोरि आकाशे चन्द्रः प्रकाशिष्यति नक्षत्राणि ज्योतिष्यन्ते.
हा तत्र प्रकाशिष्यते नक्षत्राणि द्योतिष्यन्ते.
एकः चन्द्रमा चन्द्रः तु एकः एव प्रकाशिष्यते नक्षत्राणि तु बहूनि
नक्षत्राणि सन्ति अतः
द्योतिष्यन्ते
इति. इदानीं तत्र चन्द्रः किं भवति द्योतिष्यते. हा चन्द्रः द्योतिष्यते नक्षत्राणि
नक्षत्राणि ज्योतिष्यन्ते.
इदानीं प्रकाशः इति उपयुज्य तत्र केवलं परिवर्तनं करोतु तत्र
नक्षत्राणि प्रकाशिष्यन्ते
इति. तदेव तावदेव भगिनि केवलम् अभ्यासार्थम् एतद् यदि कुर्मः अभ्यासः भवति तावदेव. अस्तु अग्रे.
तदा सूर्यः सागरे गाहिष्यते इत्युक्ते सूर्यः गाहिष्यते
सूर्यः
सागरे गाहिष्यते. यदा सायङ्काले सूर्यः गाहिष्यते सूर्यः एकः एव अस्ति
समीचीनं भगिनि. अतः तत्र सायङ्काले सः किं चिन्तयति तत्र चित्रमपि दत्तमस्ति खलु तत्र साधारणतया प्रायशः एषा एव स्थितिः खलु तत्र सूर्यस्य अस्तमसमये तत्र वयं चन्द्रस्य दर्शनमपि कर्तुं शक्नुमः हा तत्र. किन्तु नक्षत्राणि तत्र प्रायशः अनेकानि नक्षत्राणि न द्रष्टुं शक्नुमः किन्तु तत्र किन्तु तत्र अस्तु तत्र इदानीमेव तत्र सूर्यं सागरे सूर्यस्य अस्तमानम् अभवत् इति चिन्तयामः तत्र अतः अन्धकारः तत्र इदानीम् आगतम् आगतः अन्धकारः आगतः तस्मिन् समये तत्र चन्द्रस्य प्रकाशः वा नक्षत्राणां तत्र नक्षत्राणि द्योतिष्यन्ते इति तत् सर्वं भवति. अग्रे
सूर्यस्य भूत्वा तु नक्षत्राणि अपि गाहिष्यन्ते सागरे
ते अपि गाहिष्यन्ते
सागरे
किमर्थं न गाहिष्यन्ते इत्युक्ते तत्र सागरे तस्य अस्तमनं भवति इति मन्ये
तदा एव तत् तेषाम् उदयं भवति खलु यदा सूर्यः गाहिष्यते तदा एव नक्षत्राणि विद्योतन्ते आकाशे
तत्तु सत्यम्
तदनन्तरं चन्द्रः
सत्यं भगिनि
सः रक्तवर्णेन शोभिष्यते सः इत्युक्ते सूर्यः रक्तवर्णेन शोभिष्यते
तत्र रक्तवर्णेन तत्र शोभिष्यते किन्तु तत्र सूर्यस्य वर्णः तस्मिन् समये कः वर्णः इत्युक्ते तस्य वर्णः रक्तवर्णः तस्मिन् समये सायङ्काले अस्तमनसमये तत्र रक्तवर्णः सूर्यस्य रक्तवर्णः रक्तवर्णमयसूर्यः इति.
जलमपि
रक्तवर्णमयं मयं समीचीनं भगिनि समीचीनं
अपि रक्तवर्णेन
सत्यं तत्र समीचीनं भगिनि
महोदय तत्र वाक्यं सूर्यः सागरे गाहिष्यते तदा आकाशे इति भवेत् खलु
सत्यं महोदय सत्यं तत्र क्रमः सम्यक् नास्ति किन्तु तत्र केवलं तत्र किम् अभ्यासः अपि तत्र पद्य इति तत्र पोयेटिक् लैसेन्स् इति वदामः खलु तत्र तावदेव अस्तु अग्रे भगिनि
यदा सूर्यः सागरे गाहिष्यन्
न न गाहिष्यते इति तत्र यदा सः गाहिष्यते तदा
यथा आचार्यमहोदय अधुना उक्तवान् इत्युक्ते शतरञ्चप्रयोगे तु कर्तुं शक्नुमः न तत् इत्युक्ते सूर्यः सागरे गाहिष्यन्
गाहिष्यन् भवति रक्तवर्णे शोभिष्यते भविष्यत्काले शतरञ्चरूपं भवितुम् अर्हति
इति अस्तु अग्रे पश्यामः भगिनि किन्तु तत्र शतरञ्चरूपं सर्वं तत्र अग्रे पश्यामः
तत्र अहमपि पूर्वं चिन्तितवान् तत्र शतरञ्चरूपं केवलं लट् लकारे भविष्यत्काले अपि भवति इति अनन्तरं ज्ञातवान्
हा तत्र शतरञ्चरूपं तु इति किन्तु मम संशयः तु भगिनि तत्र आत्मनेपदी धातूनां शतरञ्चरूपं
क्षम्यताम् तत् शालचुर्भवति
हा इति इति हा अतः तत्र हा इति हा शानच् तत्र आत्मनेपदी धातूनां तत्र शानच् अपि परस्मैपदी धातूनां तत्र शत्रन्त इति
सम्यक् महोदय क्षम्यता
चिन्ता मास्तु भगिनि किन्तु तत्र अग्रे एतद् आयाति तत्र अन्तिम तत्र पाठः प्रायशः तत्र शत्रन्त शानच् सर्वम् अस्ति किन्तु इदानीम् उक्तवती समीचीनं किन्तु हा अग्रे सरामः चिन्ता मास्तु भगिनि कः कः भासिष्यते तत्र इव इति अस्ति इति कृत्वा तत्र पक्वं फलम् इव भासिष्यते तत्र सूर्यः पक्वं फलम् इति न वक्तुं शक्नुमः यतोहि तत्र लिङ्गभेदः अस्ति तत्र पक्वफलं सूर्यः इति न वक्तुं शक्नुमः विशेषणरूपेण न वक्तुं शक्नुमः अतः सः सूर्यः पक्वं फलम् इव भासिष्यते इति तत्तु वक्तुं
हनुमान् मन्यते
हा सत्यं भगिनि हा समीचीनं हा
सानन्दं लोकिष्यावहे आवाम् इत्युक्ते वयं सर्वे
न आवाम् इत्युक्ते वयं सर्वे न आवाम् इत्युक्ते कौ विनीतः अपि गोपालः
विनीतगोपालश्च इत्युक्ते आवां तं सानन्दं तम् इत्युक्ते दृश्यं
हा तद् दृश्यम् अथवा सूर्यं तं सूर्यं हा तं रक्तवर्णं सूर्यम् अथवा
रक्तवर्णं सूर्यं सानन्दं लोकिष्यावहे
सानन्दम् इत्युक्ते आनन्देन 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 लोकिष्यावहे इदानीं तत्र आवाम् इति स्थाने विनीतः गोपालः च इति उपयुज्य वदतु तत्र किं भवति
विनीतः गोपालश्च सूर्यम् इत्युक्ते रक्तवर्णं सूर्यं सानन्दं लोकिष्येते
हा बहु समीचीनं भगिनि अस्तु हा समीचीनं लोकिष्येते तत्र हा लोकिष्यते लोकिष्येते लोकिष्यन्ते इति हा लोकिष्येते समीचीनं भगिनि हा अस्तु अग्रे सूर्यकुमारी भगिनि धन्यवादः भगिनि हा
सप्तमबिन्दुमहोदय
सर्वे जनाः इति इदानीं
सर्वे जनाः किम् अस्ति
कुत्र कुत्र अस्ति भगिनि भवती
अष्ट अशीतिः
अष्ट असि अशीतिः किमर्थं तत्र पाठे एव स्मः वयं पाठे वाक्यं वाक्यानि यानि सन्ति तेषां परिशीलनं कुर्वन्तः स्मः खलु वयं तदनन्तरं तत्र अष्ट अशीति तत्र गच्छामः इदानीं तत्र सर्वे जनाः
फलम् इव वासिष्यते
तदनन्तरं तत्र आवां स्तं सानन्दं लोकेश्यावहे इदानीं
सर्वे जनाः लोकिष्यन्ते
किं लोकिष्यन्ते सर्वे जनाः
सूर्य
तं रक्तवर्णं मयं सूर्यं सानन्दं लोकिष्यन्ते सर्वे जनाः अग्रे तत्र के वर्तिष्यन्ते
क्रीडारताः बालाः
बालाः तत्र वर्तिष्यन्ते बालः एकवचने किं भवति
वर्तिष्यते
कः वर्तिष्यते तत्र
बालः वर्तिष्यते
बालः तत्र वर्तिष्यते कीदृशः बालः तत्र वर्तिष्यते
क्रीडारतः बालः
समीचीनं भगिनि क्रीडारतः बालः इत्युक्ते क्रीडे मग्नः बालः तत्र क्रीडन् अस्ति बालः क्रीडे मग्नः अस्ति अतः क्रीडारताः बालः अथवा क्रीडारतः बालः अथवा क्रीडारताः बालाः
तत्र
वर्तिष्यन्ते समीचीनम् अग्रे
तेषां चेष्टाः वीक्षिष्यावहे
तत्र कः वीक्षिष्यावहे कर्तृपदं किं वीक्षिष्यावहे अस्ति तत्र
वयम् आवां
आवां वीक्षिष्यावहे तत्र किं वीक्षिष्यावहे तेषां चेष्टाः वीक्षिष्यावहे बालकानां क्रीडारतानां बालानां चेष्टाः वीक्षिष्यावहे आवाम् इत्युक्ते विनीतः गोपालः च चेष्टाः वीक्षिष्यावहे इदानीं तत्र चेष्टाः इति अस्ति तत्र विभक्ति का बहुवचनं सत्यं
चेष्टाः
किन्तु तत्र चेष्टाः वीक्षिष्यावहे वा न किन्तु तत्र
बालानां चेष्टाः
किन्तु भवती उक्तवती तत्र वीक्षिष्यावहे अस्ति चेत् कर्तृपदं तु आवाम् इति उक्तवती खलु आवां वीक्षिष्यावहे अतः चेष्टाः वीक्षिष्यावहे न भवति खलु चेष्टाः पश्यन्ति वा चेष्टाः पश्यन्ति वा अथवा अन्य कोऽपि चेष्टाः पश्यन्ति वा पश्यति वा किं कः पश्यति चेष्टा इति स्त्रीलिङ्गपदमस्ति भगिनि सत्यं
द्वितीयबहुवचनं
समीचीनं चेष्टाम् इति एकवचने बहुवचने चेष्टाः इति अतः तत्र कर्मपदमस्ति कर्तृपदं तु आवां वीक्षिष्यावहे किं वीक्षिष्यावहे चेष्टाः वीक्षिष्यावहे तेषां चेष्टाः वीक्षिष्यावहे
तैः साकं वृषं मोदिष्यावहे
तैः इत्युक्ते
तैः बालकैः
बालैः
साकं वृषं मोदिष्यावहे
तत्र मोदते आवां पुनः तत्र तैः मोदिष्यावहे तत्र पुनः तत्र किं भवति तत्र आवाम् इति
तैः साकं सः अपि तुल्यपदं महोदय.
साकम् इति तत्र साकं सः इति अर्थे सः तैः साकं तत्र तैः साकं तैः सः इति अर्थे वृषं वृषम् इत्युक्ते तत्र बहु बहु इति अर्थे
अव्ययपदं महोदय
वृषम् इति तत्र वृषम् इति अव्ययं भगिनि तत्र अव्ययं न क्षम्यतां तत्र वृषम् इत्युक्ते तत्र अत्र तु वृषम् इति तत्र मोदिष्यावहे तत्र अतः तत्र क्रियाविशेषणम् अस्ति वृषं कर्मपदं न तत्र केवलं तत्र मोदते विशेषणं तत्र मोदते इति अकर्मकधातुः अस्ति अहं मोदे अत्र तत्र किं मोदे इति नास्ति इति मन्ये वृषं मोदिष्यामहे वृषं मोदिष्ये अहं वृषं मोदिष्ये आवाम्
अहं मोदिष्ये वयं मोदिष्यामहे
इति वृषम् इत्युक्ते बहु आनन्दं तत्र अनुभूतवन्तः इति तैः इत्युक्ते बालैः सह वृषं मोदिष्यावहे अग्रे
रात्रिं यावत् तत्रैव रंस्यावहे
तत्र एव रंस्यामहे तत्र तत्र प्रायशः रमते इति तत्र तत्र रंस्यावहे इति अस्ति विशेषणम् अस्ति तत्र विशेषरूपम् अस्ति तत्रैव रंस्यावहे रंस्ये रंस्यावहे
रंस्यामहे
तत्र रात्रिं यावत् पुनः तत्र यावत् इति अस्ति तत्र कालसूचकम् अस्ति अतः रात्रिं यावत् तत्र रात्रि यावत् भवति तावत् तत्र एव वयं स्थित्वा वयं रंस्यावहे विनीतः अपि गोपालः इति तेषां चिन्तनम् समीचीनम् अस्तु इदानीं तत्र अतः तत्र अस्मिन् पुटे ये अंशाः सन्ति तेषां परिशीलनं कृतवन्तः इदानीम् अपि तत्र साधारणरूपाणां लृट् लकारस्य आत्मनेपदी धातु दातवः ये सन्ति आत्मनेपदिनः दातवः ये सन्ति तेषां लृट् लकाररूपाणि दृष्टवन्तः अद्य साधारणरूपाणि अग्रिमे वर्गे तत्र किं कुर्मः तत्र विशेषरूपाणि अपि परिशीलयामः तदनन्तरम् अभ्यासमपि कुर्मः तत्र यथा भगिन्या उक्तं तत्र अष्टाशीति तत्र तमे पुटे अपि तदनन्तरं नवशीतितमे पुटे ये अभ्यासाः सन्ति तान् सर्वान् कुर्मः अस्तु तर्हि
तत्र अन्यदेक एकविषयः तत्र स्वदीति धातुः अस्ति महोदय तत्र च्युरादिगणे अपि अस्ति अतः तत्र च्युरादिगणे तत्र परस्मैपदिरूपमपि भवितुमर्हति स्वदति इति
ओ अस्तु
स्वदति इति अस्ति अपि च स्वादयति इति रूपमस्ति तत् निच्चि यदवदनं स्वादो पाठयति इति भवति स्वादयति इति भवति स्वदति अपि अस्ति अतः अस्माकं ब्रह्म भवेत् स्वदते स्वदिति इति रूपद्वयमस्ति
अस्तु महोदय अस्तु
स्वादयति स्वादयति इति अस्ति स्वादयते स्वादयति इति रूपमस्ति स्वदति अपि अस्ति अतः
समीचीनं महोदय किन्तु किन्तु यथा भवता उक्तं तत्र अस्मिन् पुटे तु तत्र आस्वदिष्यते इति तत्र
भुवादिगणे धातुः अस्ति चेत् तद् तदेव अस्ति तत्र आत्मनेपदिरूपं नास्ति तत्र स्वदति एव चुरादिगणे तत्र नास्ति आत्मनेपदिरूपं स्वदत्ते इति नास्ति स्वदति एव अस्ति तत्र किञ्चित् भिन्नमस्ति
अस्तु महोदय अतः भिन्नः तत्र अन्ये गणे अस्ति एषः
अपि च तत्र स्वादयति इति कर्मपदमस्ति चेदेव भवति अन्यथा नत्र स्वदति एव भवति इति तेन लिखितमस्ति अत्र
ओ अस्तु 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 अस्तु
अहमपि इदानीमेव पश्यन् अस्मि
अस्तु महोदय धन्यवादः समीचीनं
इत्युक्ते
उपसर्ग नास्ति उपसर्गः नास्ति, उपसर्गः नास्ति, तादृशः नास्ति. कर्मपदमस्ति चेत्, कर्मपदमस्ति चेत् आस्वादयति, अहं फलम् आस्वादयामि इति भवति. अहं स्वदामि इति एव भवेत्, अत्र स्वादयामि इति न भवति, अहं स्वादयामि इति न भवेत्. कर्मणि कर्मपदं भवेत् तत्र इति तेन अत्र लिखितमस्ति. अहं फलम् आस्वादयामि इति वक्तुं शक्यते, अहं स्वादयामि इति न वक्तुं शक्य इति तादृशवाक्यं न वक्तुं न शक्यते.
अत्र किमर्थम् आत्मनेपदीरूपम् अस्ति?
अत्र भुवादिगणे धातुः तदेव अस्ति, आत्मनेपदी एव धातुः अस्ति. भुवादिगणे यत् अस्ति तद्धातु भिन्नगणेषु भवितुमर्हति खलु. चुरादिगणीयधातवः रूपाणि भिन्नानि अस्ति, रूपाणि तावदेव.
धन्यवादः.
अस्तु तर्हि, अस्तु. तत्र रघुवीरस्वामी भवानेव अन्ते तत्र शान्तिमन्त्रं वदति वा?
ओम् पूर्णमः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ओम् शान्ति शान्ति शान्ति. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः महोदय. धन्यवादः.
धन्यवादः.